అలిభిరంజన బిందు మనోహరైః కుసుమపంక్తి నిపాతిభిరంకితః న ఖలు శోభయతి స్మ వనస్థలీం న తిలకస్తిలకః ప్రమదామివ.
అలిభిరితి అంజనబిందుమనోహరై కజ్జలకణసుందరై కుసుమపంక్తిషు నిపతంతి యే తైహి. అలిభిః అంకితః చిహ్నితః తిలకః శ్రీమాన్నామ వృక్షః. తిలకః చురకశ్రీమాన్ ఇత్యమరః. వనస్థలీం తిలకో విశేషకః. తమాలపత్రతిలకచిత్రకాణి విశేషకం ద్వితీయంచ తురీయంచ న స్త్రియాం ఇత్యమరః. ప్రమదామివ న శోభయతి స్మేతి న ఖలు అపితు అశోభయత్ ఏవేత్యర్థః. లట్ స్మే ఇతి స్మశబ్దయోగాత్ భూతార్థే లట్. తిలకేషు అంజనబిందవః శోభార్థం క్రియంతే.
అమదయన్ మధుగంధసనాథయా కిసలయాధరసంగతయా మనః కుసుమసంభృతయా నవమల్లికా స్మితరుచా తరుచారు విలాసిని.
అమదయదితి తరుచారు విలాసిని తరోః పుంసశ్చ చారువిలాసినీ నవమల్లికా సప్తలాఖ్యా లతా. సప్తలా నవమల్లికా ఇత్యమరః. మధునః మకరందస్య మద్యస్య చ గంధేన సనాథయా. గంధప్రధానయా ఇత్యర్థః. కిసలయమేవ అధరః తత్ర సంగతయా ప్రసృతరాగయా ఇత్యర్థః. కుసుమైః సంభృతయా సంపాదితయా కుసుమరూపయా ఇత్యర్థః. స్మితరుచా హాసకాంత్యా మనః పశ్యతామితి శేషః. అమదయత్
అరుణరాగనిషేధిభిరంశుకైః శ్రవణలబ్ధపదైశ్చ యవాంకురైః పరభృతావిరుతైశ్చ విలాసినః స్మరబలైరబలైకరసాః కృతాః.
అరుణేతి విలాసినః విలసనశీలాః పురుషాః. వౌ కషలస ఇత్యాదినా ఘినుణ్ ప్రత్యయః. అరుణస్య అనూరోః రాగం ఆరుణ్యం నిషేధంతి తిరస్కురువంతీతి అరుణరాగనిషేధినః తైః కుసుంభాదిరంజనాత్ తత్సదృశైరిత్యర్థః. తమన్వేత్యనుబధ్నాతి తచ్ఛీలం తన్నిషేధతి తస్యేవానుకరోతీతి శబ్దాః సాదృశ్యవాచకాః ఇతి దండీ. అంశుకైః అంబరైః శ్రవణేషు కర్ణేషు లబ్ధపదైః నివేశితైరిత్యర్థః. యవాంకురైశ్చ పరభృతావిరుతైః కోకిలాకూజితైశ్చ ఇత్యేతైః స్మరబలైః కామసైన్యైః అబలాసు ఏక ఏవ రసో రాగో ఏషాంతే అబలైకరసాః స్త్రీపరతంత్రాః కృతాః.
ఉపచితావయవాశుచిభిః కణైః అలికదంబకయోగముపేయుషీ సదృశకాంతిరలక్ష్యతమంజరీ తిలకజాలకజాలకమౌక్తికైః.
ఉపచితేతి శుచిభిః శుభ్రైః కణైః రజోభిః ఉపచితావయవా పుష్టావయవా అలికదంబకయోగం ఉపేయుషీ ప్రాప్తా. తిలకజ తిలకవృక్షోత్థ మంజరీ అలకేషు యజ్జాలకం ఆభరణ విశేషః తస్మిన్ మౌక్తికైః సదృశకాంతిః అలక్ష్యత. భృంగసంగిని శుభ్రా తిలకమంజరీ నీలాలకసక్తముక్తాజాలం ఇవ అలక్ష్యతేతి వాక్యార్థః.
ధ్వజపటం మదనస్య ధనుర్భృతః ఛవికరం ముఖచూర్ణమృతుశ్రియః కుసుమకేసరరేణుమలివ్రజాః సపవనోపవనోత్థితమన్వయుః.
ధ్వజపటమితి అలివ్రజాః షట్పదనివహాః ధనుర్భృతః ధానుష్కస్య మదనస్య కామస్య ధ్వజపటం పతాకాభూతం ఋతుశ్రియః వసంతలక్ష్మ్యాః ఛవికరం శోభాకరం ముఖచూర్ణం ముఖాలంకారచూర్ణభూతం సపవనోపవనోత్థితం. సపవనం పవనేన సహితం, యత్ ఉపవనం తస్మిన్నుత్థితం. కుసుమానాం కేసరేషు కింజల్కేషు యో రేణుః తం అన్వయుః అన్వగచ్చన్. యాతేర్లంగ్
అనుభవన్ నవదోలమృతూత్సవం పటురపి ప్రియకంఠజిఘృక్షయా అనయదాసనరజ్జు పరిగ్రహే భుజలతాం జలతామబలాజనః.
అనుభవన్ నితి నవా దోలా ప్రేంఖా యస్మిన్ తం నవదోలం ఋతూత్సవం వసంతోత్సవం అనుభవన్ అబలాజనః పటురపి నిపుణః అపి ప్రియకంఠస్య జిఘృక్షయా గ్రహీతుం ఆలింగితుం ఇచ్ఛయా ఆసనరజ్జు పరిగ్రహే పీఠరజ్జు గ్రహణే భుజలతాం బాహులతాం జలతాం శైథిల్యం డలయోరభేదః. యమకశ్లేష చిత్రేషు భవయోర్ డలయోర్న భిత్ ఇతి అనయత్. దోలా క్రీడాసు పతనభయ నాటితకేన ప్రియకంఠం ఆశ్లిష్యత్ ఇత్యర్థః.
త్యజత మానమలం బత విగ్రహైః న పునరేతి గతం చతురం వయః పరభృతాభిరితీవ నివేదితే స్మరమతే రమతే స్మ వధూజనః.
త్యజతేతి బతేత్యామంత్రణే ఖేదానుకంపా సంతోష విస్మయామంత్రణే బత ఇత్యమరః. బత అంగనాః మానం కోపం త్యజత. తదుక్తం స్త్రీణాం ఈర్ష్యాకృతః కోపో మానోన్యాసంగిని ప్రియే ఇతి. విగ్రహైః విరోధైః అలం విగ్రహో న కార్య ఇత్యర్థః. గతం అతీతం చతురం ఉపభోగక్షమం వయః యౌవనం పునర్నైతి నాగచ్చతి ఇతి. ఏవం రూపే స్మరమతే స్మరాభిప్రాయే నపుంసకే భావేక్తః పరభృతాభిః కోకిలాభిః నివేదితే సతి ఇవ వధూజనో రమతే స్మ రేమే. కోకిలాకూజితోద్దీపితస్మరః స్త్రీజనః కామశాసనభయాదివ ఉచ్ఛృంఖలం అఖేలదిత్యర్థః.
అథ యథా సుఖమార్తవముత్సవం సమనుభూయ విలాసవతీ సఖః నరపతిశ్చకమే మృగయారతిం సమధుమన్ మధుమన్ మథ సన్నిభః.
అథేతి అథ అనంతరం మధుం మథ్నాతీతి మధుమత్ విష్ణుః సంపదాదిత్వాత్ క్విప్ మధుః వసంతః మథ్నాతీతి మథః పచాద్యచ్ మనసో మధో మన్మథః కామః. తేషాం సన్నిభః సదృశః మధుమన్మధుమన్మథ సన్నిభః. సః నరపతిః దశరథః విలాసవతీ సఖః స్త్రీసహచరః సన్. ఋతుః ప్రాప్తః అస్య ఆర్తవః తముత్సవం వసంతోత్సవం యథాసుఖం సమనుభూయ మృగయారతిం మృగయావిహారం చకమే ఆచకాంక్ష.
పరిచయం చలలక్ష్య నిపాతనే भयरुषोश्च तदिङ्गितबोधनम् श्रमजयात् प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ
परिचयमिति असौ मृगया चललक्ष्याणि मृगगवयादीनि तेषां निपातने परिचयम् अभ्यासं करोति भयरुषोः भयक्रोधयोः तदिङ्गितबोधनं तेषां चललक्ष्याणाम् इङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति तनुं शरीरं श्रमस्य जयात् निरासात् प्रगुणां प्रकृष्टलाघवादिगुणवतीं च करोति अतो हेतोः सचिवैः अनुमतः अनुमोदितः सन् ययौ सर्वं चैतत् युद्धोपयोगीत्यतः तदपेक्षया मृगया प्रवृत्तिः न तु व्यसनितयेति भावः
मृगवनोपगमक्षमवेशभृत् विपुलकण्ठनिशक्तशरासनः गगनमश्वखुरोद्धतरेणुभिः नृसविता सवितानमिवाकरोत्
मृगेति मृगाणां वनं तस्य उपगमः प्राप्तिः तस्य क्षमम् अर्हं वेषं बिभर्तीति स तथोक्तः मृगया विहारानुगुणवेषधारीत्यर्थः विपुलकण्ठे निषक्तशरासनः लग्नधन्वा न सवितेव नृसविता पुरुषश्रेष्ठः उपमितसमासः स राजा अश्वखुरोद्धत रेणुभिः गगनं वितानं तुच्छम् असदिव अकरोत् गगनं नालक्ष्यतेत्यर्थः वितानं तुच्छमन्दयोः इति विश्वः अथवा सवितानम् इत्येकं पदम् सवितानम् उल्लोचसहितमिव अकरोत् अस्त्री वितानमुल्लोचः इत्यमरः
ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः तुरगवल्गनचञ्चलकुण्डलः विरुरुचे रुरुचेष्टितभूमिषु
ग्रथितमौलिरिति वनमालया वनपुष्पस्रजा ग्रथितमौलिः बद्धधम्मिल्लः तरूणां पलाशैः पत्रैः सवर्णः समानः तनुच्छदो वर्म यस्य स तथोक्तः इदं च वर्मणः पलाशसावर्ण्याभिधानं मृगादीनां विश्वासार्थम् तुरगस्य वल्गनेन गतिविशेषेण चञ्चलकुण्डलः असौ दशरथः रुरुभिः मृगविशेषैः चेष्टिताः चारिताः याः भूमयः तासु विरुरुचे विदिद्युते
तनुलता विनिवेशितविग्रहाः भ्रमरसङ्क्रमिते क्षणवृत्तयः ददृशुरध्वनितं वनदेवताः सुनयनं नयनन्दितकोसलम्
तनुलतेति तनुषु लतासु विनिवेशितविग्रहाः सङ्क्रमितदेहाः भ्रमरेषु सङ्क्रमिताः ईक्षणवृत्तयः दृग्व्यापाराः यासान्ताः वनदेवताः सुनयनं सुलोचनं नयेन नीत्या नन्दिताः तोषिताः कोसलाः येन तं दशरथम् अध्वनि ददृशुः प्रसन्नपावनतया तं देवता अपि गूढवृत्त्या ददृशुरित्यर्थः
श्वगणिवागुरिकैः प्रथमास्थितम् व्यपगतानलदस्युविवेशसः स्थिरतुरङ्गमभूमि निपानवत् मृगवयो गवयोपचितं वनम्
श्वगणीति सः दशरथः शुनाम् गणः स एषाम् अस्तीति श्वगणिनः श्वग्राहिणः तैः। वागुरा मृगबन्धनरज्जुः, वागुरा मृगबन्धनी इत्यमरः। तया चरन्तीति वागुरिकाः जालिकाः, चरति इति ठक् प्रत्ययः। द्वौ वागुरिकजालिकौ इत्यमरः। तैश्च प्रथमम् आस्थितम् अधिष्ठितम्। व्यपगताः अनलाः दावाग्नयः दस्यवः तस्कराश्च यस्मात्तत्तथोक्तम्। दस्यु तस्करमोषकाः इत्यमरः। कारयेद्वनविशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः। आप्तशस्त्रि अनुगतः प्रविशेद्वा सङ्कटे च गहने च न तिष्ठेत् इति कामन्दकः। स्थिरा दृढा पङ्कादिरहिता तुरङ्गमयोग्या भूमिः यस्य तत्। निपानवत् आहावयुक्तम्, आहावस्तु निपानम् स्यात् उपकूपजलाशये इत्यमरः। मृगैः हरिणादिभिः वयोभिः पक्षिभिः गवयैः गोसदृशैः अरण्यपशुविशेषैश्च उपचितम् समृद्धम् वनम् विवेश प्रविष्टवान्।
अथ नभस्य इव त्रिदशायुधम् कनकपिङ्गतडिद्गुणसंयुतम् धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी।
अथेति अथ अनाधिः मनोव्यथारहितः नरवरः नरश्रेष्ठः। रवेण धनुष्टङ्कारेण रोषिताः केसरिणः सिंहाः येन सह राजा। कनकमिव पिङ्गः पिशङ्गः यः तडिदेव गुणो मौर्वी तेन संयुतम् त्रिदशायुधम् इन्द्रचापम्। नभस्यः भात्रपदमासः इव स्युर्नभस्य प्रौष्ठपद भात्रभात्रपदाश्रमाः इत्यमरः। अधिज्यम् अधिगतमौर्वीकम् धनुः उपाददे जग्राह।
तस्य स्तनप्रणयिभिर्मुहुरेण शावैः व्याहन्यमानहरिणीगमनम् पुरस्तात्। आविर्बभूव कुशगर्भमुखम् मृगाणाम् यूथम् तदग्रसरगर्वितकृष्णसारम्।
तस्येति स्तनप्रणयिभिः स्तनपायिभिः एणशावैः हरिणशिशुभिः पृथुकशावकशिशुः इत्यमरः। व्याहन्यमानम् तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानम् हरिणीनाम् गमनम् गतिः यस्य तत्। कुशा गर्भे एषाम् तानि मुखानि यस्य तत् कुशगर्भमुखम्। यस्य यूथस्य अग्रेसरः पुरःसरः गर्वितः दृप्तश्च कृष्णसारो यस्य तत्। मृगाणाम् यूथम् कुलम्, सजातीयैः कुलम् यूथम् तिरश्चाम् पुंनपुंसकम् इत्यमरः। तस्य दशरथस्य पुरस्तात् अग्रे आविर्बभूव वसन्ततिलकावृत्तम्।
तत्प्रार्थितम् जवनवाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति श्यामी चकार वनमाकुलदृष्टिपातैः वातेरितोत्पलदलप्रकरैरिवार्द्रैः।
तदिति जवनो जवशीलः जुचङ्क्रम्य इत्यादिना युच्प्रत्ययः। तरस्वी त्वरितो वेगी प्रजवी जवनो जवः इत्यमरः। तम् वाजिनम् अश्वम् गतेन आरूढेन तूणी इषुधिः बह्वादिभ्यश्च इति स्त्रियाम् ङीष्। तस्याः मुखात् विवरात् उद्धृतशरेण राज्ञा प्रार्थितम् अभियातम्। याच्ना यामाभियाने च प्रार्थना कथ्यते बुधैः इति केशवः। अत एव विशीर्णा पङ्क्तिः सङ्घीभावः यस्य तत्। मृगयूथं कर्तृ आर्द्रैः भयात् अश्रुसिक्तैः आकुलाः भयचकिताः ये दृष्टिपाताः तैः। वातेरितोत्पलदलप्रकरैः पवनकम्पितेन्दीवरदलवृन्दैः इव वनं श्यामीचकार।
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम्। आकर्णकृष्टमपि कामितया सधन्वी बाणं कृपा मृदुमनाः प्रतिसञ्जहार।
लक्ष्यीकृतस्येति हरिः इन्द्रः विष्णुर्वा तस्येव प्रभावः सामर्थ्यं यस्य सः तथोक्तः। धन्वी धनुष्मान् सनृपः। लक्ष्यीकृतस्य वेद्धुमिष्टस्य हरिणस्य स्वप्रेयसः देहं व्यवधाय अनुरागात् अन्तर्धाय स्थितां सहचरतीति सहचरी। पचादिषु चरतेः टित्करणात् ङीप् यथाः वामनः। अनुचरीति चरेष्टित्वात् इति। तां सहचरीं हरिणीं प्रेक्ष्य कामितया स्वयं कामुकत्वात् कृपामृदुमनाः करुणार्द्रचित्तस्सन् आकर्णकृष्टम् अपि दुष्प्रतिसंहारम् अपीत्यर्थः। बाणं प्रतिसञ्जहार नैपुण्यादित्यर्थः। नैपुण्यं तु धन्वीत्यनेन गम्यते।
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः। त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः प्रौढप्रियानयन विभ्रमचेष्टितानि।
तस्येति त्रासात् भयात् अतिमात्रचटुलैः अत्यन्तचञ्चलैः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि। प्रगल्भकान्ताविलोचनविलासव्यापारान् सादृश्यात् स्मरतः। अपरेष्वपि मृगेषु शरान् मुमुक्षोः मोक्तुमिच्छोः तस्य नृपस्य निबिडः दृढः अपि मुष्टिः कर्णान्तम् एत्य प्राप्य बिभिदे। स्वयमेव भिद्यते स्म। भिदेः कर्मकर्तरि लिट्। कामिनः तस्य प्रियाविभ्रमस्मृतिजनितकृपातिरेकात् मुष्टिभेदः न तु अनैपुण्यादिति तात्पर्यार्थः।
उत्तस्थुषः सपदि पल्वलपङ्कमध्यात् मुस्ताप्ररोहकवलावयवानुकीर्णम् जग्राहसद्रुतवराह कुलस्य मार्गम् सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः।
उत्तस्थुष इति सः नृपः। मुस्ताप्ररोहाणाम् मुस्ताङ्कुराणाम् कवलाः ग्रासाः तेषाम् अवयवैः श्रमविवृतमुखभ्रंशिभिः शकलैः अनुकीर्णम् व्याप्तम् आयताभिः दीर्घाभिः आर्द्रपदपङ्क्तिभिः सुव्यक्तम्। सपदि पल्वलपङ्कमध्यात् उत्तस्थुषः उत्थितस्य द्रुतवराहकुलस्य पलायितवराहयूथस्य मार्गम् जग्राह अनुससार।
तं वाहनादवनतोत्तरकायमीषत् विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीशुः। नात्मानमस्य विविदुस्सहसावराः वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु
तमिति वराहाः वाहनात् अश्वात् ईशदवनतोत्तरकायम् किञ्चिदानतपूर्वकायम् विध्यन्तम् प्रहरन्तम् तम् नृपम् उद्धृतसटाः ऊर्ध्वकेसराः सन्तः सटा जटाकेसरयोः इति केशवः प्रतिहन्तुम् ईशुः प्रतिहर्तुम् ऐच्छन् अस्य नृपस्य इषुभिः सहसा जघनानाम् आश्रयेषु अवष्टम्भेषु वृक्षेषु विद्धम् आत्मानम् न विविदुः एतेन वराहाणाम् मनस्वित्वम् नृपस्य हस्तलाघवञ्चोक्तम्।